नमस्सर्वेभ्यः. अद्य कोविदवर्गस्य सप्तचत्वारिंशः पाठः, अक्टोबर् मासस्य पञ्चविंशः दिनाङ्कः. गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. गतवर्गे वयं सन्नन्तानां विषये ज्ञातवन्तः. सन् इति कश्चित् प्रत्ययः भवति. इच्छार्थकः कस्यचित् कार्यस्य करणे इच्छां बोधयितुं सन् प्रत्ययः भवति. सर्वेभ्यः धातुभ्यः एषः प्रत्ययः भवति. सन्नन्तः शब्दः पुनः सः अपि धातुः भवति. धातोः सन्निति प्रत्ययः क्रियते, सन्नन्तः पुनः सः अपि धातुः. यथा णिजन्ते पठ धातोः णिच् प्रत्ययः पाठी इति भवति, सः अपि धातुः. पुनः तस्य पाठयति पाठयतः इत्यादि रूपाणि. एवमपि अत्र पठ धातोः सन् प्रत्ययः भवति. पिपठिष इति सः पुनः धातुः. तस्मात् सर्वाणि तिङन्तरूपाणि कृदन्तरूपाणि च भवन्ति. सन्नन्तेषु सर्वाणि रूपाणि भवन्ति. दशसु लकारेषु एवं कर्तरि दशलकाराः, कर्मणि दशलकाराः, कृत् प्रत्ययाः, एवं सर्वाणि रूपाणि भवन्ति. किन्तु मुख्यतया त्रीणि रूपाणि अस्मिन् स्तरे अस्माभिः ज्ञातव्यानि सन्ति. एकं लट् लकारस्य रूपम् पिपठिषति इत्यस्ति. सर्वाणि नवरूपाणि पिपठिषामि, पिपठिषसि, पिपठिषन्ति इत्यादि लट्लकाररूपाणि. पिपठिषा इति कृदन्तशब्दः, आकारान्तस्त्रीलिङ्गः, अ प्रत्ययः. पिपठिषा इत्यस्य पठितुम् इच्छा इत्यर्थः. एवं पिपठिषुः इति उकारान्तः शब्दः, सोऽपि कृदन्तः. यः पठितुम् इच्छति सः कर्ता पिपठिषु इत्यनेन बोध्यते. एवं रूपत्रयं मुख्यानां धातूनाम् अस्माभिः ज्ञातव्यं भवति. तत्कोष्ठकमपि दृष्टम्. वाक्ये सन्नन्तानां प्रयोगः कथं भवति, तिङन्ततया वा कृदन्ततया वा इति दृष्टवन्तः. पदनिर्णयः, सन्नन्तः धातुः परस्मैपदी भवति वा आत्मनेपदी भवति वा उभयपदी भवति वा इति चेत् पूर्ववत् सनः. यस्माद् धातोः वयं सन् प्रत्ययं कुर्मः, सः धातुः, द ओरिजिनल् धातु, सः परस्मैपदी अस्ति चेत् सन्नन्तः अपि परस्मैपदी. सः धातुः आत्मनेपदी चेत् सन्नन्तः अपि आत्मनेपदी. सः उभयपदी चेत् सन्नन्तः अपि उभयपदी इति निर्णयः, सामान्यनियमः. तत्र केचन अपवादाः सन्ति. ज्ञा, श्रु, स्मृ, दृश् एतेषां चतुर्णां धातूनां सन्नन्तरूपाणि आत्मनेपदे एव भवन्ति. यद्यपि पश्यति, शृणोति इत्यादि परस्मैपदमेव, तथापि सन्नन्तरूपम् आत्मनेपदे भवति. जिज्ञासते, शुश्रूषते, दिदृक्षते इति. सन्नन्तान् आधृत्य केचन अभ्यासाः दृष्टाः, दत्ताः आसन्. कोष्ठकं पूरणीयं. लट्लकारस्य प्रथमपुरुषैकवचनरूपम्, अप्रत्ययः, एवम् उ प्रत्ययः इति. ये वक्तुमिच्छन्ति हस्तमुन्नयन्तु. सुब्रह्मण्यं महोदय, लिखति.
नमस्ते भगिनि. लिलेखिषति, लिलिखषति, द्वय रूपाणि. लिलेखिषा, लिलिखिषा, लिलेखिषुः, लिलिखिषुः.
सम्यक्. तत्र रूपद्वयं भवति, लिलिखिषति, लिलेखिषति. एवं लिलिखिषा लिलेखिषा लिलिखिषुः लिलेखिषुः सम्यक् गच्छति
गच्छति जिगमिषति जिगमिषा जिगमिषुः
सम्यक् आगच्छति
आगच्छति स्वल्प सन्देहः अस्ति उपसर्ग अनन्तरं आजिगमिषति आजिगमिषा आजिगमिषुः
सम्यक् सम्यक् उत्तमं तत्र मया वक्तुं विस्मृतं वर्गे यत्र उपसर्गः अस्ति सन्नान्तरूपात् पूर्वम् उपसर्गः इति नियमः यथा वयं लङ्लकारे लङ्लकारस्य सिद्धं रूपं स्वीकृत्य ततः पूर्वम् उपसर्गं योजयामः एवं सन्नन्तेपि केवलधातोः इदानीम् आ गच्छति सो गच्छति इत्यस्य यत् सन्नन्तरूपं जिगमिषति ततः पूर्वम् आ इत्यस्य योजनम् इत्येव अतः सरलं केवलधातोः रूपं जानीमः चेत् ततः पूर्वं वयं उपसर्गं योजयामः तावानेव विशेषः श्रीमती
पिपासति पिबति पिपासति पिपासा पिपासुः
सम्यक् पिपासति पिपासा पिपासुः
खादति न जाने तत्र कथम् इति
चिखादिशति
चिखादिशति चिखादिशु दिशु
चिखादिशति चिखादिशा चिखादिशुः ददाति
ददाति दत्स दत् ददर्शि
दित्सति
दित्सति दिदिशा
दित्सा
दित्सा दित्सुः
सम्यक् दित्सति दित्सा दित्सुः दातुमिच्छा दित्सा डिसैर् टु गिव् सो दातुम् इच्छुः यः दातुमिच्छति सः दित्सुः अग्रे
नमस्ते
नमस्ते
स्वीकरोति स्वीचिकीर्षति स्वीचिकीर्षा स्वीचिकीर्षुः
सम्यक् स्वीचिकीर्षा स्वी सो चिकीर्षा करोति इत्येव धातुः ततः पूर्वं स्वी इत्यस्य योजनम्
जानाति जिज्ञासते जिज्ञासा जिज्ञासुः
सम्यक्
वन्दते विवन्दशते विवन्दिशते विवन्दिशते विवन्दिशा विवन्दिषुः
सम्यक् धन्यवादाः महालक्ष्मी
नमस्ते पश्यति दिदृक्षते दिदृक्षा दिदृक्षुः शृणोति शुश्रूषते शुश्रूषा शुश्रूषुः करोति चिकीर्षति चिकीर्षा चिकीर्षुः
सम्यक् उत्तमम् एवं सन्नन्तरूपाणि ज्ञातानि अग्रे विग्रहवाक्यं लेखनीयं सन्नन्तरूपं दीयते तत्र त्वेधा एव इत्युक्ते धातुं स्वीकृत्य तत्र इच्छति इच्छा इच्छुः यद्रूपमस्ति यदि लट्लकाररूपमस्ति तर्हि इच्छति यदि अप्रत्ययान्तरूपमस्ति तर्हि इच्छा यदि उप्रत्ययान्तं रूपमस्ति इच्छुः इति वक्तव्यम् अन्ये केऽपि किमर्थमद्य अत्यन्तं न्यूनाः जनाः विवक्षन्ति
नमस्ते महोदये
नमस्ते
तितीर्षा तरितुम इच्छा
हाँ तरितुम तर्तुम तरितुम त्रीणि रूपाणि सन्ति तर्तुम इच्छा तरितुम इच्छा तितीर्षा सम्यक्
विवक्षवः वक्तुम इच्छवः
वक्तुम इच्छवः विवक्षवः सम्यक् धन्यवादः राजलक्ष्मी भगिनी
नमस्ते पातुम इच्छन्ति पिपासन्ति
सम्यक् पातुम इच्छन्ति पिपासन्ति
गन्तुम इच्छुः जिगीषुः
जिगमिषुः गन्तुम इच्छुः जिगमिषुः जिगीषा जेतुम
जिगीषा जेतुम इच्छुः जेतुम
इच्छुः जिगीषुः सम्यक् So there is a slight difference. Jigamisha is for gum, whereas Jigisha is the desire to win, conquer. So Jigishuhu Jetum Ichuhu. Ramakrishna Rao Mohane.
Praptum Icha Itsa.
Aptum Icha Itsa. एकं क्षणं क्षम्यताम् ऐ थिंक देयर इज अ हां हां रिरक्षिषन्ति
रिरक्षितंति रक्षितुम इच्छन्ति
सम्यक् रक्षितुम् इच्छन्ति रिरक्षिषन्ति उत्तमम् प्रिया भगिनी
दिधाविषवः धावितुम् इच्छवः
धावितुम् इच्छवः उत्तमम्
मुमुक्षा मोक्तुम् इच्छा
मोक्तुम् इच्छा सम्यक् अग्रे सुधा भगिनी
यातुम इच्छा
सम्यक् यातुम इच्छा यासा
दीच्छन्ति दातुम इच्छन्ति
सम्यक् दातुम इच्छन्ति दीच्छन्ति उत्तमम् अत्र कश्चन प्रश्नः अस्ति ईप्सा इत्यत्र आप्तुम् इच्छा इति आप्तुम् इत्युक्ते किम् इति आप्तुम् प्राप्तुम् आप् धातोरेव प्र उपसर्गे प्राप्तुम् टु गेट् डिजैर् टु गेट् और् अटैन् संथिङ्ग् इत्यर्थः अग्रे सन्नन्तम् उपयुज्य वाक्यं लेखनीयम् सो इन्स्टेड् आफ् द सन्नन्त यु हेव् टु यूस् अ ऐ मीन् इन्स्टेड् आफ् दोस् कलर्ड् वर्ड्स् You have to use a sannanta and rewrite the sentence. Jayashri, Magini.
Namaste, Magini. Phalani chikhadishavah balah amravanam gatavantah.
Samyak. Phalani chikhadishavah balah. So, boys who wanted to eat the fruits went to the mango grove.
Kim tvam mayasah chalachitram Didrukshasi.
Didruksha.
Didrukshasi.
Drishudhatoho sannantam atmane padi bhavati.
Didrukshate.
Didrukshase. Didrukshase. Kimvam maya saha chalachitram didrukshase. Do you want to watch a movie with me?
Vayam paresham vishaye na vivakshamah.
Samyak na vivakshamah. So the na comes out of it. So na vivakshamaha. We don't want to speak about others. Dhanyavadaha. Chandrasekharan Mahodaya.
Pradhana Mantrinaha Bhashanam Shushrushavaha Janaha Durat Samayataha.
Ha. Shrotum Ichchavaha Shushrushavaha. Samyak.
आत्मानं जिज्ञासा एव आत्मजिज्ञासा आत्मजिज्ञासा एव तत्त्वज्ञानस्य प्रथमं सोपानम्.
सम्यक्. आत्मजिज्ञासा, डिजायर टू नो वन सेल्फ. अत्र यदि पृथक् वदामः तर्हि आत्मनः जिज्ञासा इति भवति. यतोहि जिज्ञासा इति कृदन्तशब्दः, कृदन्तयोगे कर्मपदात् षष्ठी भवति. बट् इट् इस् मच् ईजियर् अण्ड् बेटर् टु मेक् इट् समास अण्ड् से आत्मजिज्ञासा. सो आत्मजिज्ञासा एव तत्त्वज्ञानस्य प्रथमं सोपानम्. सम्यक्, धन्यवादाः. केऽपि प्रश्नाः सन्ति वा सन्नन्तानां विषये? समायाताः इत्यस्य कः अर्थः? सम् आयाति, आयाति आगच्छन्ति, समागताः. सो दे हेव् कम् फ्रम् फार् टु लिसन् टु द स्पीच् आफ् द प्रैम् मिनिस्टर् इत्यर्थः. एनी अदर् क्वश्चन्स् आन् सन्नन्तस्? उत्तमपुरुषे कथम् इति कृपया स्पष्टीकरोतु. समानं, यदा वयं किं सन्नन्तस्य प्रथमं रूपं जानीमः, यथा पठिष्यति, तो पठति पठतः पठन्ति, पठसि पठतः पठथ, पठामि पठावः पठामः. समानरीत्या पिपठिष्यति पिपठिषतः पिपठिषन्ति, पिपठिष्यसि पिपठिषथः पिपठिषथ, पिपठिष्यामि पिपठिषावः पिपठिष्यामः इति रूपम्. अतः यथा पठामि तथा पिपठिष्यामि, पठितुम् इच्छामि. आत्मानं जिज्ञासा इति असाधुवा इति आम्, आत्मानं जिज्ञासा इति दोषः. तत्र कर्तृकर्मणोः कृति इति सूत्रमस्ति. तत्र केषाञ्चन कृदन्तानां विषये षष्ठी भवति, केषाञ्चन विषये द्वितीया भवति. यथा शत्रुप्रत्ययः अस्ति चेत् पाठं पठन् अथवा भाषणं शृण्वन् इत्येव भवति. किन्तु यदा तृच् प्रत्ययः भवति, भाषणस्य श्रोता इति. कर्तृकर्मणोः कृति इत्यस्य निषेधः अस्ति, न लोकाव्ययनिष्ठा इति. ल उ उक इत्यस्ति, उ प्रत्ययः तत्र अस्ति, षष्ठी निषेधः अस्ति तत्र. अतः यदि जिज्ञासा इति भवति तत्र षष्ठी, आत्मनः जिज्ञासा. किन्तु जिज्ञासुः अस्ति चेत् आत्मानं जिज्ञासुः इति भवति. विभक्ति नियमान् जानीमः चेत् तत्र ज्ञायते उ प्रत्ययेन सह षष्ठी विभक्तेः निषेधः अस्ति. आम्रवनं वा आम्रवणं वा इति अपरः प्रश्नः. आम्रवणम् इत्येव विशेषः अस्ति, विशेषनियमेन तत्र णत्वम् अस्ति. वस्तुतः णत्वस्य विषये चिन्तयन्त्या मया तद्वाक्यं लिखितम्. अद्यतनविषयः अस्ति णत्वम् इति. णत्वं नाम किम् इति चेत्, नकारस्य स्थाने णकारादेशः भवति. सो सामान्यतः यत्र नकारः भवेत् तत्र कदाचित् णकारः भवति. तत् कार्यं णत्वम् इति कथ्यते. सो न अण्ड् त्व प्रत्ययः, णस्य भावः णत्वं, वयं तद्धितप्रत्ययान् अधीतवन्तः. यथा पुरुषस्य भावः पुरुषत्वम् इत्यादि भवति, एवं णस्य भावः णत्वं. द व्याकरणे सामान्यतः आदेशाः जष्त्वं श्चुत्वं चर्त्वं णत्वम् इत्यादि त्व प्रत्ययेन निर्दिश्यन्ते. णकारः भवति इत्यर्थः. यत्र सामान्यतः नकारः भवेत् तत्र कदाचित् णकारः भवति. यथा देवेन इत्यादि नकारः भवति. देवेन इदानीं यदा णत्वस्य विषये उच्यते णत्वसहितानि एव रूपाणि स्मर्यन्ते. गणेशेन शिवेन इत्यादि यत्र यत्र न इति भवति, किन्तु यत्र रामेण इति वदामः तत्र णकारः भवति, तद्वयं णत्वम् इति वदामः. निमित्ते सति नकारस्य स्थाने णकारः आदेशः भवति. सो दिस् कन्वर्शन् आफ् न टु ण happens in presence of a certain nimitta. Okay, so there are certain nimittas which are capable of converting nakara to nakara. Natvasya kim nimittam iti chet trayaha varnaha rephaha rikaraha shakaraha evam trayaha varnaha natvasya nimittam bhavanti. Only in the presence of these three letters, a nakara may change to nakara. It is not that nakara will change to nakara. It may or may not. There are additional conditions, but the primary cause for natva is the presence of these three letters, one of these three letters before the nakara. Nakarat purvam एतेषु एकः कश्चित् वर्णः अस्ति चेत् णत्वस्य सम्भवः अस्ति. इट् इस् पासिबल् दट् न मे गेट् कन्वर्टेड् टु णकार. उदाहरणानि पश्यामः. कर्णः ऋ न नकारस्य णत्वं जातम्. सो कृष्णः षकारः नकारः. भोक्तृणा ऋकारः नकारः. पितॄणां ऋकारः नकारः. विष्णुः षकारः नकारः. विकीर्णं रेफः णकारः. सर्वत्र नकारस्य णत्वं जातम्. सो द फॉर्म्स शोन हियर आर वेयर द णत्व हैज ऑलरेडी हैपेंड बिकॉज ऑफ द प्रीसीडिंग लेटर. द प्रीसीडिंग लेटर इन ऑल दीज केसेस इज वन ऑफ दीज थ्री, रेफ षकार और ऋकार. ऋ और ऋ, ह्रस्व और दीर्घ, बोथ आर अलाउड. सो इफ द नकार इज इमीडिएटली प्रिसीडेड बाय वन ऑफ दीज लेटर्स, डेफिनेटली णत्व विल बी देर. सो जस्ट बिफोर द नकार, इफ द प्रीवियस लेटर इज वन ऑफ दीज, णत्व विल डेफिनेटली हैपन. णत्वं निश्चयेन भवति. किन्तु अत्र विशेषः निमित्त नकारयोः मध्ये. वाट् इस् निमित्त? रेफ षकार ऋकार इस् निमित्त एण्ड् नकार. सो बिट्वीन् दीस् टू लेटर्स्, निमित्त नकारयोः मध्ये अन्यवर्णाः सन्ति चेदपि, ईवन् इफ् देर् आर् अदर् लेटर्स्, कदाचित् णत्वं भवति. इन् सम् केसस् देर् विल् बी णत्व. If there are no letters in between, natva will definitely happen. Even when there are some letters in between, natva will happen. Kim udaharanam? Ramena. Atra nimittam asti rephaha. Nakaraha atra asti. Madhye a, m, e. Trayaha varanaha santi. Tathapi natvam asti. Arkanam. Rephaha nakaraha madhye k, a asti. चषकेण षकारः णकारः नकारः मध्ये अ क ए त्रयः वर्णाः सन्ति. सर्वत्र णत्वम् अस्ति. किन्तु कदाचित् तु मध्ये अन्यवर्णाः सन्ति चेत् णत्वं न भवति. देर् आर् सम् केसस् वेर् वि डोण्ट् सी द णत्व, ईवन् वेन् देर् इस् रेफ षकार एट्सेट्रा. दर्शनं, रेफः अस्ति नकारः अस्ति किन्तु णत्वं नास्ति. रचना, सुरेफः नकारः. कष्टेन षकारः नकारः. णत्वं नास्ति. इवन् दो वी हाव् द निमित्त, णत्वं न भवति. तर्हि कुत्र भवति, कुत्र न भवति इति ज्ञातव्यम्. तत्र व्यवधायकवर्णाः अव्यवधायकवर्णाः इति अस्ति. व्यवधायकवर्णाः वर्णास् विच् प्रिवेण्ट् णत्व, सो विच् कास् एन् अब्स्ट्रक्षन् टु णत्व. वेरस् अव्यवधायकवर्णाः वर्णास् विच् डु नाट् अब्स्ट्रक्ट् णत्व. तत्र स्वराः, सर्वे स्वराः अ आ इ ई सर्वं, ह य व, कवर्गः पवर्गः, एते वर्णाः अव्यवधायकाः. अर्थात् निमित्तणकारयोः मध्ये एते वर्णाः सन्ति चेदपि णत्वं भवति. पूर्वं गच्छामः, रामेण अत्र स्वराः सन्ति, सो स्वराणां विषये चिन्ता न कर्तव्या. एनी स्वर विल् अलौ णत्व. सो वि जस्ट् हाव् टु चेक् द व्यञ्जनस्. सो म, म इस् इन् पवर्ग, क इस् इन् कवर्ग, क इस् इन् कवर्ग. सो बिकास् द लेटर्स् आर् अव्यवधायकास्, णत्वं भवति. किन्तु व्यवधायकवर्णः एकः व्यवधायकवर्णः अस्ति चेदपि णत्वं न भवति. द प्रेसेन्स् आफ् अ सिङ्गल् व्यवधायकवर्ण बिट्वीन् द निमित्त एण्ड् नकार विल् ब्लाक् णत्व. ओके, उदाहरणानि पश्यामः. क्षत्रियाणाम् इत्यस्ति, रेफः अस्ति क्षत्र, इ य आ न मध्ये एते वर्णाः सन्ति. सो बिट्वीन् निमित्त एण्ड् नकार वि हेव् त्री लेटर्स्, आल् आफ् देम् आर् अव्यवधायक, स्वर एण्ड् यकार. सिमिलर्लि ब्रह्मणः, ब्र इत्यत्र रेफः अस्ति, अ ह म अ सर्वे अव्यवधायकाः. रूप्यकाणि, रेफः आदौ अस्ति, नकारः अत्र अस्ति, मध्ये उ प य अ क आ, षट् वर्णाः सन्ति, सर्वे अव्यवधायकाः, स्वराः पवर्गः कवर्गः यकारः, अतः णत्वं भवति. वृषभाणाम्, अभ आ, भकारः पवर्गस्य, अतः णत्वं भवति. किन्तु मारीचेन, ऋ रेफः अस्ति, नकारः अस्ति, मध्ये चकारः व्यवधायकवर्णः. सो चकार बिलाङ्ग्स् टु द लिस्ट् आफ् व्यवधायक, सो इट् विल् ब्लाक् णत्व. रश्मिना, अत्र शकारः अस्ति. कष्टेन, अत्र टकारः अस्ति. वार्तानाम्, अत्र तकारः अस्ति. सो अ सिङ्गल् व्यवधायक लेटर् बिट्वीन् द निमित्त एण्ड् नकार विल् ब्लाक् णत्व. अतः मध्ये कोऽपि व्यवधायकवर्णः नास्ति चेत् णत्वं भवति इति निर्णयः. अवगतम् इति भावयामि. सरलम् वस्तुतः णत्वं, द बेसिक् लेवल् आफ् णत्व इस् ईजि. The thing is, there are many exceptions to this rule. Okay? So, natvasya bahuni sutrani santi. There are specific natva vidhanas and specific natva nishedhas in the ashtadhyayi. Samanya niyamaha tu eshaha. Nimittam repaha rikaraha shakaraha. Madhye vyavadhanam kesham bhavet. Atra, we saw this table. You have to remember either this column or this. Ubhayoho smaranam napekshitam. You can either remember this column and then, okay, if there is anything else, there is no natva. Or you can remember this column and spot if any of these is there, there is no natva. Ubhayoho smaranam kartum shakyate. Vastutaha trapanini sutram. यदि सूत्रं जानन्ति तर्हि स्मरणं सरलं स्यात्. ऐ विल् जस्ट् पुट् द सूत्र हियर् फार् दोस् हू वुड् लैक्. सो पाणिनीयं सूत्रमस्ति अत्र, यदि व्याकरणस्य किञ्चित् प्रवेशः अस्ति तर्हि ज्ञातुम् अर्हन्ति. अट् कु पु आङ् नुम् व्यवाये अपि इति सूत्रम्. अट् कुप् वाङ् नुम् व्यवायेपि. सो सूत्रम् एज़् आल्वेज़ अ सूत्र इज़् ईज़ी टु रिमेम्बर् बिकास् इट् इस् शार्ट् रादर् देन् रिमेम्बरिङ्ग् अ लिस्ट्. इफ् यु अण्डर्स्टाण्ड् द सूत्र इट् इस् ईज़ियर् टु रिमेम्बर्. अट् इस् अ प्रत्याहार. माहेश्वरसूत्राणि सन्ति अ इ उण् इत्यारभ्य हयवरट्. सो इट् कवर्स् स्वराः एण्ड् हय व. कु इस् कवर्ग, पु इस् पवर्ग. आङ् एण्ड् नुम् फार् दिस् लेवल् यु केन् फर्गेट् अबौट् इट् बिकास् आङ् इस् एन् उपसर्ग एण्ड् नुम् इस् अनुस्वार. सो दोस् आल्सो अलौ णत्व. सो पाणिनि गिव्स् अ लिस्ट् आफ् अव्यवधायक वर्णाः. के वर्णाः अव्यवधायकाः? एते एतैः व्यवाये अपि णत्वं भवति इति पाणिनिना उच्यते. अतः मध्ये एते वर्णाः सन्ति चेदपि णत्वं भवति. सो इफ् यु एक्चुअलि रिमेम्बर् त्री थिङ्ग्स् अट् कु पु दट्स् आल्. सो दे आर् अव्यवधायकस्, द रिमेनिङ्ग् आर् व्यवधायकस् इति स्मर्तुं शक्यते. अट् इत्युक्ते किम् इति तु ज्ञातव्यम्. सो इफ् यु नो वाट् इस् अट् देन् अट् कु पु इस् द perhaps the easiest way to remember the rule for natva. Okay, astu atra kechana prashnaah santi. One of those I'll take later. In the last example, two letters are there. Which two letters? So Vrushabhanam ityatra a bh shakara hasti, and between before nakara we have three letters. All of them are avyavadhayaka because bh is pavarga. Ataha atra natvam bhavati. Vartanam ityatra tu takara vyavadhayaka, ataha natvam na bhavati. Okay. आदौ किञ्चित् अभ्यासं कुर्मः. अन्ये केचन प्रश्नाः सन्ति, अनन्तरम् उत्तरं ददामि. किं शुद्धं? यथा महाराजेन इति शुद्धं वा महाराजेण इति शुद्धं वा इति चिन्तयामः चेत् कथं निर्णयः, क्रमः कः? आदौ वर्णविभागः कर्तव्यः. सो यु हव् टु स्प्लिट् द लेटर्स्. महाराजेन म अ ह आ ऋ आ ज ए न अ. वेरी इम्पोर्टेण्ट् टु ऐडेण्टिफै ईच् लेटर् विच् इस् प्रेसेण्ट्. देन् ऐडेण्टिफै द निमित्त एण्ड् नकार. नकारः अस्ति, णत्वस्य निमित्तमस्ति रेफः. सो रेफः नकारः. इदानीं मध्ये ये वर्णाः तेषां परीक्षणं करणीयम्. तत्र कोऽपि व्यवधायकवर्णः अस्ति वा इति चेत् जकारः व्यवधायकवर्णः. आ एण्ड् ए आर् अलौड्, दे आर् स्वरास्, बट् ज इस् इन् चवर्ग, द सेकेण्ड् वन्. इट् इस् नाट् अट् कु पु. अतः अत्र णत्वं न भवति, महाराजेन इति रूपं भवति. ओके, सो अस्य अभ्यासं कुर्मः. वाहकाणाम् उत वाहकानां किं रूपं शुद्धम् इति प्रश्नः. ये वक्तुमिच्छन्ति कृपया हस्तम् उन्नयन्तु. श्रीमती भगिनी, सत्यम्. अत्र पश्यामः चेत् व आ ह क आ नकारः अस्ति, किन्तु निमित्तमेव नास्ति. सो द फस्ट् थिङ्ग् टु लुक् फार् इस् द निमित्त, विच् इस् रेफ षकार ऋकार. निमित्तमेव नास्ति चेत् णत्वं निश्चयेन न भवति. सो वाहकानाम् इत्येव शुद्धं. सम्यक्. अग्रिमं महिषीणाम् उत महिषीनाम्? रामनाथन् महोदय.
मकार अकार हकार इकार शकार इकार नकार आकार मकार. इदानीं निमित्तं शकारं, मध्ये इकार एव भवति, इकारम् एव भवति. सो मीन् नत्वं भवति.
नत्वं भवति. निमित्तनकारयोः मध्ये केवलम् ईकारः अस्ति, सः अव्यवधायकवर्णः अट् स्वरः. अतः णत्वं भवति महिषीणाम् इति रूपम्. सम्यक्. मृगाणाम् उत मृगानाम्? उमादेवी भगिनी
नमस्ते. मृग निमित्त निमित्तं निमित्तं आफ्टर् गकार अकार इस्ते. सो मृगाणां
णत्वं भवति वा?
हलो न न टटड णत्वं
भवति.
णत्वं भवति. या
ऋ ग आ न आ म. अत्र निमित्तमस्ति ऋकारः, नकारः अस्ति, मध्ये गकारः आकारः. गकारः कवर्गः कु अट् कु, अतः अव्यवधायकः. अतः णत्वं भवति मृगाणाम् इति रूपं. साधु. मरीचिकानां मरीचिकाणाम्? नलिनी भगिनि.
मरीचिकानां णत्वं न भवति.
न भवति. किमर्थं न भवति?
चकारः अस्ति.
सम्यक्. रेफः नकारः, मध्ये चकारः. अन्ये वर्णाः अव्यवधायकाः, किन्तु चकारः अस्ति, सः व्यवधायकः. अतः णत्वं न भवति मरीचिकानाम् इति रूपम्. सम्यक्. सारि, देर् इस् अ रिपीटेड् स्लैड्. प्रजाकर्षणम् अथवा प्रजाकर्षणम्?
प्रजाकर्षणं प्रजाकर्षणं पो रो ज आ को शो रु रु शो न अ म इन न एंड शो एंड अ ओनली अ इज देयर.
करेक्ट.
सो इट विल बी णत्वं भवति.
णत्वं भवति. सम्यक्.
प्रजाकर्षणम्
उत्तमम्. अत्र पश्यामः चेत् वस्तुतः पदे त्रीणि निमित्तानि सन्ति. रेफ रेफ षकार. किन्तु यः यत् निमित्तम् अत्यन्तं समीपे अस्ति तस्यैव परिगणनम्. ओके. यु केनाट् से दट् देर् इस् अ जकार बिट्वीन् दिस् रेफा एण्ड् न एण्ड् देर् फोर् देर् इस् नो णत्व. यु शुड् आल्वेस् टेक् द निमित्त विच् इस् क्लोजेस्ट् टु द नकार, बिकास् दट् केन् स्टिल् इवन् इफ् देर् इस् समथिङ्ग् एल्स् हियर् दिश एण्ड् न. सो नकारस्य समीपे यदस्ति तदेव निमित्तं. मध्ये तु केवलं स्वरः अस्ति, अव्यवधायकः. अतः प्रजाकर्षणम् इत्यत्र णत्वं भवति. सरलं तत्र. इदानीं तु अस्मिन् स्तरे विशेषांशाः केऽपि न सन्ति. णत्वम् इत्युक्ते नकारस्य स्थाने णकारस्य प्रयोगः. णत्वस्य निमित्तं भवन्ति त्रयः वर्णाः, रेफः ऋकारः अथवा षकारः. अव्यवधायकवर्णाः निमित्तनकारयोः मध्ये एते वर्णाः सन्ति चेदपि णत्वं भवति. एनी नंबर, द नंबर डज नॉट मैटर, ऑल ऑफ देम शुड बिलोंग टू वन ऑफ दीज. अट् कु पु स्वराः ह य व कवर्गः पवर्गः. अन्ये वर्णाः व्यवधायकाः इति उच्यन्ते. एतेषु एकः वर्णः अस्ति चेदपि णत्वं न भवति. सो ल ष स स चवर्ग टवर्ग तवर्ग एतेषु एकः वर्णः अस्ति चेदपि णत्वं न भवति इति सामान्य नियमः. दिस् इस् द जनरल् रूल् फार् णत्वा. किन्तु अपवादाः सन्ति. यथा बहुभिः पृष्टम्, नकारः पदान्ते अस्ति चेत् णत्वं न भवति. रामान् अत्र पश्यामः. सो पदान्ते णत्वं न भवति, यथा रामान् इत्यस्ति. वस्तुतः अत्र ऋ आ म आ न. अत्र वस्तुतः सर्वे वर्णाः अव्यवधायकाः एव, आकारः पवर्गस्य आकारः. किन्तु पदान्ते नकारः अस्ति चेत् णत्वं न भवति इति नियमः. अतः रामान् इत्यत्र णत्वं नास्ति. अपरम् एकमस्ति, बहु मुख्यः अंशः वस्तुतः, किन्तु अत्र नास्ति. तत्र पाणिनिसूत्रं पश्यामः चेत् रसाभ्यां नोणः समानपदे. समानपदे इति नियमः णत्वस्य अस्ति. समानपदे इत्यस्य कः अर्थः? निमित्तं नकारः उभयमपि एकस्मिन् एव पदे भवेत्, तदा एव णत्वं भवति इति नियमः. इदानीं रामेण, अत्र रामान् इत्यस्य नास्ति, किन्तु यदि वयं रामेण इति स्वीकुर्मः, अत्र रेफः अस्ति, नकारः अस्ति, समानपदे अस्ति, अतः णत्वं भवति. यदि निमित्तं भिन्नपदे अस्ति, भिन्नपदे इत्युक्ते समासे रामनाम इति वदामः. अत्र किमस्ति? अत्रापि ऋ आ म अ न आ म अ अव्यवधायकवर्णाः एव सन्ति, किन्तु रेफः पूर्वपदे अस्ति. रामनाम इत्यत्र पदद्वयं वयं समासं ज्ञातवन्तः सुवन्तयोः, अतः वस्तुतः मूले पदद्वयम् अस्ति. अतः रामनाम इत्यत्र निमित्तं पूर्वपदे अस्ति, नकारः उत्तरपदे अस्ति चेत् णत्वं न भवति इति सः पुनः सामान्यनियमः. सो द जनरल् रूल् सेस् इफ् द निमित्त एण्ड् नकार आर् इन् डिफरेण्ट् वर्ड्स् देन् यु विल् नाट् हाव् णत्व इति सामान्यनियमः. किन्तु तत्र पुनः अपवादाः सन्ति. देर् आर् स्पेसिफिक् केसस् वेर् ईवन् इफ् द रेफ एण्ड् or rather the nimitta and nakara are in different words, there may be natva. So they are all specific cases. Generally, if you have the nimitta and nakara in different words, then there will be no natva. Okay, for all, as in that is any word. It is not just for repha or shakara. The sutra says rashabhyam, kintu there is a vartika which includes the rikara, and therefore rikarasya api natvam bhavati. There is a specific vartika. So repha, shakara, rikara, all of them are there. Okay. So generally, if you look at words like say For example, let us say madhura ganam. Okay, so madhuram ganam, madhura ganam. So repah asti, nakarah asti, madhye avyavadhayaka varanaha, tathapi natvam na bhavati. Okay, you can give lot of examples. So the general rule says, if it is a samasta pada and your repa or shakara is in the purva pada, whereas the nakara is in the uttara pada, then there will be no natva. Okay. Even if, irrespective of, you don't have to look at what is in between. The moment you see that it is purva pada and uttara pada, there is no natva. Okay. But there are exceptions. As I said, it is not possible to enumerate all exceptions. The one of the most common examples is samgyavachakas. Purva padat samgyayam agaha iti sutramasti. So if your samasta pada is a name, proper name for something, okay, then you can still have natva, even if there are two different words. One of the most popular examples is Ramayanam. Okay, so Ramayanam is Rama and Ayanam. Okay, Ayanam nama margaha ityarthaha. So Ramasya Ayanam, the path of Rama ityarthaha. Kintu atra kimasti repaha purvapade asti nakaraha uttarapade asti. Kintu Ramayanam iti samgya bhavati. It is a samgya. It is the name of a text. It is not the path of Rama. We do not say any road that Rama walked in is Ramayana. Ramayana is the name of that specific text. And therefore, natvam bhavati. Okay. So, it may seem a bit confusing initially. We have to understand that Panini and Vyakarana always works with general rule exception. General rule exception. The general rule says that the Nimitta and Nakara have to be in Samana Pada. The exception says if that if there is Purva Pada, Uttara Pada also, if the whole word is a Samgya, a name, then you can still have natva. So Ramayanam ityatra natvam bhavati. Okay. Okay. Amravanam iti apavadahava. There is a specific rule there which gives natva in Amravanam. Okay. So Nirvighnam. Yes. Nirvighnam ityatra. Again, nir is an upasarga and vighna, it is a separate word. Always upasargas are separate words. Ataha nirvighnam ityatra natvam na bhavati. Because they are separate words. Okay. How does Ramena and Raman differ? See, Ramena ityatra nakaraha padante nasti. Please remember, that is why you have to go to the letter level. So, in Ramena, there is an A after Na. Na is not at the end of the word. Okay, there is an Akara. Whereas in Raman, there is nothing after Nakara. Nakara is padanta. Ataha Raman ityatra natvam na bhavati. Okay. Just like Ramayan, Uttarayan, Dakshinayanam, Satyam, Uttarayanam, Uttarayana. So it is a specific name that 6 months is called Uttarayana. It is not a northern path. I mean, just any northern path is not Uttarayana. Ataha Uttarayanam ityatrapi samnyatvat natvam bhavati. Okay, I'll come back. I mean, I think there are many questions. I will see. So what does samana pade mean? We have already seen that when there are two nimittams, which letter to be taken, whichever is closest to the nakara. So if you go backward from the nakara, whichever nimitta you find first is the nimitta. Okay. How is Natvam justified in Ramayanam? We saw it. Nirvighnam. Wherever Ayana comes, Natvam is mandatory. No. It's not that. So, it is just that if it is a specific name, I mean, these examples are where they are specific names. Ataha, Natvam Bhavati. If you make a general samasa, like Viranam Ayanam, so a path of the brave, Tatra tu Virayanam ityeva Bhavati, Virayanam iti na Bhavati, because it is not a specific name. Nimittasya sutram kripaya dadatu. Kasya nimittasya sutram. Natvasya sutra dvayam pradhanam asti. The first sutra is rashabhyam nona samanapade. The next one is atkupvangnum yavayepi. So those are the two sutras which give natva in general. And there are many, many exceptions. Exceptions, it is impossible to list them, because it is like there are almost I think 40 exceptions to natva, and specific cases where there natva is given or natva is prevented and so on. So it is not possible to list all of them in this class. Maybe sometime when we are studying Panini and Vyakarana, we can definitely do that. Could you please repeat for Uttarayanam? Uttara and Ayana. Okay. So Uttara, the Repa is in the Purvapada and Ayana is in the Uttarapada. Okay. But Uttarayanam is a Samjna. Uttarayanam is the 6 months in which the sun moves in the northern path. Okay. That is why it is derived from a northern path. But not all northern paths are Uttarayanam. Uttarayanam is specifically a name for those 6 months of the year. And therefore, Natvam Bhavati. In Dakshinayanam, if you look at Dakshinayanam, the thing is, there is a, even though Dakshinayanam is also a Samnya, there is a Vyavadhayaka Varna. You should remember that even in case of the Samnya, that not having a Vyavadhayaka letter is very important. So, Dakshinayanam ityatra nakaraha Vyavadhayaka Varnaha asti. Ataha yadyapi shakaraha asti, Dakshinayanam ityatra natvam na bhavati. Okay, that is this one about natva. So as I said, as you keep learning, you will learn more sutras for natva. For now, the important things to remember is the nimitta and the vyavadhayaka varanas. Padante natvam na bhavati, samana pade eva natvam bhavati. Vibhinna pade, if it is separate words, samnyayam natvam bhavati. So this much we can try to remember now. Further rules we will learn sometime later. Okay. Is samana pada used as the opposite of samasta pada? Yes, samana means same. So yes, it is to rule out samasta padas basically. As in samasta padas where one is in the Purva Pada and the other is in the Uttara Pada. So there is one more question which was not Natva, but which was about the Sannanta. There are some cases where there is Sha, like Pipathisha, etc. Whereas in other cases there is Pipasa, Sakara. How do we decide that? It is a general one. So generally, you will have the sha if the letter before that is ikara or kavarga. Okay, in sannanta I am saying. Basically, in kavargabhyam shatvam bhavati iti sutram asti. If the letter is any swara other than akara or kavarga, then you will have the sha. For example, if you have pipat I sha. Okay. Sannante sarvatra samanyataha I bhavati, but if you have other also, this applies not only to sannantas, also to the, say, saptami, bahuvachana. Where do you have the sha and where do you have the sa? If the preceding letter is any swara other than akara or kavarga, that is in kavarga, any swara other than ikara, haya varala and kavarga, that is what it means, then you will have the sha. For example, you will have Harishu, Gurushu, Goshu. Okay. So any swara other than akara. Akaraha asti chet, yatha ramasu, ityadi, or other vyanjanas. If there are other vyanjanas, say marutsu, ityadi, tatra sakaraha bhavati, evam atrapi. Jigyasa, pipasa, yatra avaranaha asti, athava ipsa, other vyanjana, other than the kavarga or hayavarala, tatra sakaraha bhavati, anyatra shakaraha bhavati. So this is another interesting topic which we have not directly covered in Kovida. We call it shatva. Like natva, shatva is also a wide-ranging concept. The general rule says, if the letter before it is in or kavarga, in is a pratyahara for any swara other than akara. So swaraha minus a or a. Okay. And ha, ya, va, ra, la is in. And kavarga. If these letters are before the sakara, so whether it is in sun or in the saptami bahuvachana, then you will have the shakara. Okay, so all these are examples. Harishu, Gurushu, Goshu, Vakshu, where you have the kakara. Halshu, where you have the lakara. So any of these, any swara other than akara, ha, ya, vara, la and kavarga means that there will be sha. If it is akara, then it will be sa. Okay. Anya kepi prashnaha santi va? Shvaha margaha bhavati. So we will study a bit more about kavya. I think with this we have covered the vyakarana section of Kovida. Right? Samasaha tadhitaha. Nijantaha, sannantaha, natvam. So, vyakaranamshaha, asmabhihi adhitaha. So, for the next few classes, we will continue and conclude with whatever is remaining in the other portions. Guru reva gatir guru meva bhaje guru naiva saha asminamo gurave na guru paramam shishurasmi guru or matirasti guru omamapahi guru. Yes, Mahadevan Mahode, Prashna Hastiva.
Yes, Mahode. I have one basic doubt. The sutra says at Pukvang Num Yavayeti. At is a at includes Hayavarata, but Repaha is included in at. But actually, Repaha, then if it is at all included, it becomes the Nimitta by itself. So it should really not be at, no? It should be only at.
Yes. Ar, you cannot make a pratyahara with ar. You can make a pratyahara only with an it letter, right? So in hayavarat, we want till vakara, but there is no pratyahara which will stop at vakara. So he uses at, that's all. Yeah. Any other questions? If you have questions, you can raise your hands. Otherwise, we'll stop here. Okay. Prashna hasti va? Nasti? Astu. Shwaha milama.